एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। काष्ठमण्डपस्य शंखरापुर नगरपालिकायाः तृतीयवडा क्षेत्रे ह्यसायं दुरापन्नायां बसयानस्य दुर्घटनायां चत्वारो जना मृताः सन्ति। ह्यसायम् आसन्न षड्वादने शंखरापुर नगरपालिकायाः तृतीयवडा क्षेत्रस्य फेदी वनवर्तिनी मार्गे जर्सिङ पौवास्थानात् साँखुस्थानाय प्रस्थितम् महानगर यातायातस्य बसयानम् दुर्घटितम् सद् चत्वारो जनाः मृताः सन्तीति प्रहरिणा ज्ञापितमस्ति। मृतेषु पञ्चपञ्चाशत् वर्षीया शान्ति गुप्ता, बाँके कोलपुर स्थानस्य कामना शेर्पा, ताप्लेजुङ जनपदस्य इन्दिरा लिम्बू च वर्तन्ते, अन्यस्य एकस्य सत्यापनम् अवशिष्टम् वर्तते इति प्रहरिणा ज्ञापितमस्ति। दुर्घटनायाम् आसन्न चत्वारिंशत् यात्रिणः आताः सन्तीति प्रहरिणा सूचितम् वर्तते। नेचर हब नाम्न्याः संस्थायाः कर्मचारिणः वनभोजम् गत्वा प्रत्यावर्तनस्य क्रमे बसयानम् दुर्घटनाग्रस्तम् आसीत्। बस दुर्घटनायाम् निपतिताः आहताः जनाः विभिन्नेषु अष्टसु चिकित्सालयेषु उपचाराय प्रापिताः सन्तीति काष्ठमण्डपस्य महानगरीय प्रहरी परिसरस्य प्रवक्ता पवन भट्टराई असूचयत। बसयानम् मार्गात् आसन्न शत मीटरमितम् अधः निपतितम् आसीत्। दुर्घटनाया सम्बन्धे अतिरिक्तम् अनुसन्धानम् जायमानम् अस्तीति प्रहरी प्रवक्ता भट्टराई असूचयत्। मन्त्रीपदात्यागपत्रम् प्रदत्तवान् कुलमान घिसिङ। आत्मना पदे वर्तमान समये देश जनते केन्द्रे निधाय कार्यम् कर्तुम् प्रयास विहित इति निगदति। मन्त्रीपदात्यागपत्रस्य प्रदानस्य पश्चात् ह्य मन्त्रालये आयोजिते पत्रकार सम्मेलने घिसिङ लघु समये मन्त्रीपदे वर्तमानेऽपि आत्मना महत्वपूर्ण नीतिगत सुधारस्य सुदृढः आधारः निर्मितः इति उदैरयत। निर्वाचनाचार संहितायां संचार सम्बद्धम् अतिरिक्तम् एकम् प्रावधानम् वर्धितमस्ति। निर्वाचनस्य प्रचार प्रसारयोः निषेधावधौ कथम् विधानि अपि विमर्शनानि अन्तर्क्रिया सभा सम्मेलनानि च अन्यानि कार्यशाला गोष्ठी च कर्तुम् न शक्यन्ते केनापि विधिना प्रक्रियातः वा मतम् याचितुम् निर्वाचनस्य प्रचार प्रसारौ कर्तुम् वा न शक्यन्ते इति च व्यवस्था वर्धितेति आयोगेन ज्ञापितम् वर्तते। नूतन प्रावधानस्य अनुसारेण अनलाइन माध्यमेन विहितस्य निर्वाचन प्रचारस्य व्यय विवरणमपि निर्वाचन व्यये समावेशनीयम् वर्तते। कृत्रिम बौद्धिकतायाः प्रयोगम् कृत्वा कथम्विदमपि आचार संहिताया उल्लङ्घनम् कर्तुम् न शक्यते इति च विषयः नूतन प्रावधाने समावेशितोऽस्ति। तत्पूर्वम् ह्य आगामिनः माघमासस्य एकादशे दिवसे सम्पत्स्यमानस्य राष्ट्रियसभायाः सदस्यानाम् निर्वाचनस्य प्रयोजनाय चतुश्चत्वारिंशता प्रत्याशिभिः निर्वाचनायोगे स्वीय प्रत्याशिता पञ्जीकारिता वर्तते। राष्ट्रियसभायाः निर्वाचने अन्यदलैः समन्वयाय विहितायाः सहमतेः अनुसारेण नेपाली कांग्रेस दलस्य नवभिः प्रत्याशिभिः प्रत्याशिता पञ्जीकारिता अस्ति। तत्पूर्वम् ह्य प्रात नेपाली कांग्रेस दलस्य कार्यसम्पादन समितेः उपवेशेन नवानाम् प्रत्याशिनाम् प्रत्याशिता निश्चिता आसीत्। एवमेव नेकपा एमाले दलस्य पक्षतः अष्टाभिः प्रत्याशिभिः स्वीय प्रत्याशिता पञ्जीकारिता वर्तते। एवमेव नेकपा नाम्ना नेपाली कम्युनिष्ट दलस्य पक्षतः सप्तदशभिः प्रत्याशिभिः स्वीय प्रत्याशिता पञ्जीकारिता अस्ति। लोकतान्त्रिक समाजवादी दल नेपालस्य पक्षतः अध्यक्षेण महन्त ठाकुर इत्यनेन मधेस प्रदेशे अन्य पक्षतः स्वीय प्रत्याशिता पञ्जीकारिता वर्तते। अत्रान्तरे निर्वाचनायोगेन आगामिनः माघ मासस्य एकादशे दिवसे सम्पत्स्यमानस्य राष्ट्रियसभाया निर्वाचनस्य प्रयोजनाय चतुश्चत्वारिंशता प्रत्याशिभिः प्रत्याशिता पञ्जीकारितास्तीति विज्ञाप्य प्रत्याशिताम् प्रस्तुतवताम् जनानाम् विरूद्धे अद्यतनदिवसाय विरोध ज्ञापनम् प्रदातुम् निर्धारितमस्ति। स्व पञ्चविंशे परश्व षड्विंशे च दिवसयोः प्राप्त विरोध ज्ञापन निवेदनानाम् अध्ययनम् कृत्वा नामावली प्रकाशयिष्यते अष्टाविंशे दिवसे प्रत्याशिभ्य निर्वाचन चिह्नम् प्रदास्यते इति च ज्ञापितमस्ति। आगामिनः माघ मासस्य एकादशे दिवसे प्रातः नववादनात् द्विवादनम् यावत् मतदानम् भविष्यतीति आयोगेन ज्ञापितमस्ति। नेपाली कांग्रेस दलेन दलस्य पदाधिकारीभिः सदस्यैर्वा व्यक्तिगत रूपेण आहूतस्य अधिवेशनस्य विशेष महाधिवेशनस्य वा नाम्नि विहिताः गतिविधयः दलस्य विधानस्य विपरीताः सन्तीति उल्लिख्य तत्र संलग्नाः न भवितुम् नेतारः कार्यकर्तारश्च आहूताः वर्तन्ते। केन्द्रीय कार्यालयेन ह्य विज्ञप्तिम् प्रकाश्य दलस्य विधाने विद्यमानाया व्यवस्थाया अनुसारेण कस्यापि अधिवेशनस्य महाधिवेशनस्य च आह्वानस्य अधिकारः व्यक्तिगत रूपेण दलस्य कस्मैश्चिदपि पदाधिकारिणे सदस्याय वा प्रदत्तम् नास्ति, दलस्य केन्द्रीय कार्यसमित्यै एव प्रदत्तम् वर्तते इति स्पष्टीकृतम् वर्तते। कांग्रेस दलस्य विशेष महाधिवेशन पक्षधरै ह्य पत्रकार सम्मेलनम् कृत्वा अस्यैव पौष मासस्य सप्तविंशे अष्टाविंशे च दिवसयो काष्ठमण्डपे विशेष महाधिवेशनस्य आह्वानस्य पश्चात् कांग्रेस केन्द्रीय कार्यालयेन एवं विज्ञप्तिः प्रकाशिता वर्तते। तत्पूर्वम् ह्य नेपाली कांग्रेस दलस्य महामन्त्रीद्वयेन गगन कुमार थापा विदेन विश्व प्रकाश शर्मणा च विशेष महाधिवेशनम् आहूतम् आसीत्। गृहमन्त्रिणा ओम प्रकाश अर्यालेन ललितपुरवर्तिनौ मदेश्यायोगम् मुस्लिमायोगम् च प्राप्य पदाधिकारीभिः सह विमृष्टम् वर्तते। पश्चात्तन समये तराई मधेशस्य कतिपयेषु जनपदेषु दृष्टानाम् साम्प्रदायिक्याः अहिष्णुतायाः घटनानाम् विषये विमर्शनम् केन्द्रितम् आसीदिति गृहमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। इति समाचाराः।